गुरुणां वचनात् शीघ्रं संभारा संभ्रियन्तु मे समर्थाधिष्ठितस्या स्वः सोपाध्यायो विमुच्यताम्। शरय्यात्सोत्तरे तीरे यज्ञभूमिर्विधीयताम्। शान्तयच्चाभिवर्धन्ताम् यथा कल्पं यथा विधि। सख्यकर्तुमयं यज्ञः सर्वेनापि महीक्षिता। नापश्यो भवेत् कष्टो यद्यस्मिन् कृतसत्तमे। छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः। विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति। तद्यथा विधिपूर्वं मे क्रतु एष समाप्यते। तथा विधानं क्रियतां समर्थाः करणेष्विहा।